एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः चन्द्रकान्त पौडेलः। प्रधानमन्त्री शेरबहादुर देउवा वदति वर्तमान सर्वकारस्य सत्तारोहणम् अनु अन्तर्राष्ट्रिय जगति नेपालस्य छवौ विश्वसनीयतायाञ्च उल्लेख्या वृद्धि सम्भूता वर्तते। नेपाल विश्व सम्बन्ध परिषद चतुस्सप्ततितम वार्षिकोत्सवस्य अवसरे ह्यः काष्ठमण्डपे आयोजिते कार्यक्रमे प्रधानमन्त्री देउवा सर्वकारेण नेपालस्य नेपाली जनतायाश्च हितप्रवर्धनाय केन्द्रीभूय अन्तर्राष्ट्रिय समुदाये देशस्य छवेः उन्नयनस्य सर्वेभ्यो देशेभ्य अधिक तम सद्भावं समर्थनं सहयोगं च अधिगन्तुं सक्रियतया अनुकूलस्य अन्तर्राष्ट्रिय वातावरण सर्जनस्य च लक्ष्यं निर्धारितमिति धारणाम् अभिव्यनक्। प्रधानमन्त्री देउवा अवोचत् जलवायु परिवर्तनं खाद्य सुरक्षा कोविड 19 टीकाकरणं समानता लोकतन्त्रं सुशासनं चेति विश्वव्यापी महत्वस्य विषयेषु अस्माकं सिद्धान्तेभ्य प्राथमिकताभ्य अभिरूचिभ्यश्च स्वरस्य प्रखरतायै अवसरः प्रदत्तो वर्तते। निर्वाचनायोगेन आगामिनो वैशाख मासस्य 30 दिवसे सम्पत्स्यमानाय स्थानीय स्तराणां निर्वाचनाय निर्वाचन कार्यक्रम स्वीकृतो वर्तते। आयोगस्य ह्य उपविष्टेन उपवेशेन स्वीकृतस्य निर्वाचन कार्यक्रमस्य अनुसारेण आगामिनो वैशाख मासस्य 11-12 दिवसयोः प्रत्याशिनां मनोनयन पत्रस्य पञ्जीकरणस्य कार्यक्रम निर्धारित इति आयोगस्य प्रवक्ता शालिग्राम शर्मा पौडेल ज्ञापयत्। वैशाखस्य 12 दिवसे एव प्रत्याशिनां सूचीं प्रकाशयितुं, 13 दिवसे प्रत्याशिनां विरोधाय निवेदनं प्रदातुं, 13-14 दिवसयोः मनोनयन पत्राणि परीक्षितुं च आयोगेन निर्णीतं वर्तते। एवमेव वैशाखस्य 15 दिवसे प्रत्याशिनां नामावल्याः प्रकाशनस्य, 16 दिवसे प्रत्याशिनां नाम्नां प्रत्यावर्तनस्य, प्रत्याशिनाम् अन्तिम नामावल्याः प्रकाशनम् अनु वैशाख मासस्य 17 दिवसे प्रत्याशिभ्य निर्वाचन चिन्ह प्रदानस्य च कार्यक्रमाः सन्ति। निर्वाचनस्य कार्यक्रमाः सम्बद्ध निर्वाचनाधिकृतस्य कार्यालये भविष्यन्ति इति आयोगेन ज्ञापितं वर्तते। सांविधानिक निकायानां पदाधिकारिणां नियुक्तेर्विरुद्धे पञ्जीकारितस्य आदेशाभियाचन निवेदनस्य श्रवणं विलोकनस्य क्रमे स्थापितमस्ति। निवेदनमिदम् आधृत्य अपरश्रवणं बुधवासरे भविता। केपी शर्मा ओलिनो नेतृत्वस्य सर्वकारेण सांविधानिक परिषद परामर्शेन नियुक्तानां 52 पदाधिकारिणां नियुक्ते निरसनम् अभियाच्य पञ्जीकारितानां निवेदनानां सांविधानिक न्यायपीठे प्रेषणम् अनु ह्यः सर्वोच्च न्यायालये श्रवणमेतत् प्रारब्धमस्ति। आदेशाभियाचन निवेदने संविधानस्य मर्मणः विपरीततया अध्यादेशस्य माध्यमेन संसदीय श्रवणं च विना विहितानां नियुक्तीनां निरसनम् अभियाचितं वर्तते। सांविधानिक निकायानां पदाधिकारिणां नियुक्ति सांविधानिक प्रावधानस्य विपरीतम् अस्तीति तर्कयद्भिः वरिष्ठाधिवक्त्रा दिनेश त्रिपाठिना, अधिवक्तृद्वयेन ओमप्रकाश अर्यालेन, समृत खरेलेन च सर्वोच्च न्यायालये निवेदनं पञ्जीकारितम् आसीत्। न्यायाधीशस्य हरिपुहालस्य एकल न्यायपीठेन अधिवक्तुः डा गणेश रेग्मिणः आदेशाभियाचन निवेदनस्य श्रवणं कृत्वा सांविधानिक परिषदा सह सम्बद्धस्य अध्यादेशस्य एतादाधारेण भीतया नियुक्त्या सह सम्बद्धस्य न्यायिक प्रकरणस्य च श्रवणं स्थगयितुं गत भाद्रमासस्य 17 दिवसे अन्तरिमादेशः प्रदत्तः आसीत्। नेकपा एकीकृत समाजवादी दलस्य अध्यक्षेण माधव कुमार नेपालेन भूकम्पेन क्षतिग्रस्तानां गोरखा जनपदस्य लाप्राक बारपाक प्रभृतीनां क्षेत्राणां विकासाय प्रयतितुं प्रतिबद्धता व्यक्ता वर्तते। नेकपा एकीकृत समाजवादी दलस्य गोरखा जनपद समित्या ह्य लाप्राक स्थाने आयोजिते कार्यक्रमे अध्यक्ष नेपाल अवदत् लाप्राक स्थानं यावत् मार्गस्य स्तरं उन्नेतुं स्वास्थ्य पेयजल विद्युतां प्रापणार्थं च सम्बद्ध निकायस्य माध्यमेन प्रयत्यते। विकासस्य कृते जनतया अपि सचेष्टया भाव्यम् इति विषये अध्यक्ष नेपाल बलम् अदात्। भूमि व्यवस्था सहकारी विपणता निवारण मन्त्रिणा शशिश्रेष्ठेन भक्तपुरस्य मध्यपुर ठिमी नगरपालिकायाः ग्रामेषु स्थितेभ्य भूमिविहीनेभ्य ह्यः भूस्वामित्व प्रमाणपत्राणि वितीर्णानि वर्तन्ते। भूमिविहीनेभ्य भूस्वामित्व प्रमाणपत्राणि वितरन्ति मन्त्री श्रेष्ठः। आगामि आर्थिकवर्षं यावत् ग्रामेषु स्थितेभ्य भूमिविहीनेभ्य भूस्वामित्व प्रमाणपत्र वितरणस्य समापनत्वेन कार्यम् अग्रे वर्धापितम् इति अज्ञापयत्। मध्यपुर ठिमी नगरपालिकायाः ग्रामीणक्षेत्रे निवसद्भ्य 50+ परिवारेभ्य भूस्वामित्व प्रमाणपत्राणि वितीर्णानि सन्ति। यस्तनावधि आराष्ट्रं ग्रामीणक्षेत्रे निवसद्भ्य 15,000+ भूमिविहीनेभ्य भूस्वामित्व प्रमाणपत्राणि वितीर्णानि सन्ति इति मन्त्रालयेन ज्ञापितं वर्तते। गृहमन्त्रिणा बालकृष्ण खाण इत्यनेन सह संघीय लिम्बुवान दल नेपालस्य प्रतिनिधिमण्डलं ह्यः अमिलत्। गृहमन्त्रालये विहिते तस्मिन् मेलने गृहमन्त्रिणा खानेत्तेनेन सह प्रतिनिधिमण्डलेन विभिन्नेष् कालखण्डेष् निगृहीतानां स्वदलस्य नेतृणां कार्यकर्तृणां च मोचनाय अनुरूद्धमासीत्। लिम्बुवान दलेन इतः पूर्व सोमप्रसाद पाण्डेयस्य नेतृत्वे संघटितया समित्या सह षड्वारं परामृष्टमासीत्। लिम्बुवान दलस्य प्रतिनिधिमण्डले दलमहासचिव सूर्य माकिम, उपमहासचिव विक्रम सुब्बा, दलस्य इलाम जनपदाध्यक्ष शरण फागोचेती नेतार आसन्। नागरिकतायाः प्रमाणपत्रस्य प्राप्तेः वञ्चितेभ्यः नागरिकेभ्यः सहजरूपेण नागरिकता प्रदानस्य विषये सर्वकारस्य अधिकारिणां मध्ये गृहमन्त्रालये ह्यो विमृष्टं वर्तते। गृहमन्त्रिणो बालकृष्ण खाण इत्यस्य उपस्थितौ 63-2000 विक्रमाब्दीयं नागरिकताधिनियमं संशोधयितुं निर्मिते विधेयके दलानां मध्ये भीतां सहमतिं क्रियान्वयितुं विमृष्टं वर्तते। विमर्शने विधि न्याय संसदीय विषय मन्त्री दिलेन्द्र प्रसाद बढ़ु, महान्यायाधिवक्ता खम्म बहादुर खाती, गृह सचिव टेकनारायण पाण्डे चेती सर्वकारस्य उच्च पदाधिकारिणः सहभागिनः आसन्। नेपाली कांग्रेस दलस्य केन्द्रीय कार्यसमिति रूपवेशः अस्यैव चैत्रमासस्य एकादशे दिवसे दिवादिवादने सानेपावर्तिनी दलस्य केन्द्रीय कार्यालये अवस्था। उपवेशे स्थानीय स्तराणां निर्वाचनस्य पूर्वकार्यस्य प्रतिगृहं गच्छाम, कांग्रेस दलं जापयाम इति अभियानस्य समीक्षायाः संसदीय समितेः संघटनस्य च विषयेष् विमृक्षते इति दल कार्यालयस्य मुख्य सचिवः कृष्णप्रसाद पौडेलः अज्ञापयत्। स्वास्थ्य जनसंख्या मन्त्रालयेन स्वास्थ्य संस्थासु चिकित्सालयेष् च उपचाराय गमनस्य समये अतः परं पीसीआर विधेः परीक्षणम् आवश्यकं न भवति इति ज्ञापितं वर्तते। मन्त्रालयस्य सहप्रवक्ता डॉ समीर कुमार अधिकारी कोरोना विषाणो विरोधिन टीकाकरणस्य पूर्णमात्रां आहितवतीनां कोविड 19 संक्रमणस्य लक्षणरहितानां च व्यक्तीनां कृते चिकित्सालये उपचारार्थं पीसीआर विधेः परीक्षणं नावश्यकमिति अगदत्। चिकित्सालयाय प्रस्थानावधौ टीकाकरणाधान प्रमाणपत्रम् अनिवार्य रूपेण सहैव नेतव्यमिति मन्त्रालयेषु ज्ञापयति। ह्यः आराष्ट्रं विहितेन 5000 14,900 च निदर्शनानां परीक्षणेन 150 जनेषु कोरोना विषाणोः संक्रमणं पुष्टीभूतमिति स्वास्थ्य जनसंख्या मन्त्रालयो ज्ञापयति। ह्यः 92,100 जनाः संक्रमणात् मुक्ताः सन्ति। सम्प्रति आराष्ट्रं 1,93,900 जनाः सक्रिय संक्रान्ताः वर्तन्ते। अधिकार दुरूपयोगानुसन्धानायोगेन पोखरावर्तिनो यातायात व्यवस्था कार्यालयस्य तात्कालिकेन कार्यालय प्रमुखेण गोकुल शर्मा पौडेलेन सहितानां नवानां कर्मचारिणां विरुद्धे परीक्षायाः परिणामं परिवर्त्य भ्रष्टाचरितमिति विषयकम् आरोपपत्रं ह्यः पञ्जीकारितमस्ति। 75-2000 विक्रमवर्षस्य माघशीर्षमासे 67-2000 विक्रमवर्षस्य श्रावणमासात् माघशीर्षमासं च यावत् यानचालनानुमतिपत्रस्य विभिन्न दिनांकेषु संचालितेषु विभिन्न वर्गाणां परीक्षासु अनुत्तीर्णानां अनुपस्थितानां च परीक्षार्थिनां मध्ये 68% परीक्षार्थिनां परिणामं परिवर्त्य भ्रष्टाचरितमिति दर्शनस्य कारणेन काष्ठमण्डपस्थिते विशेष न्यायालये आरोपपत्रमिदं पञ्जीकारितमिति आयोगस्य प्रवक्त्रा श्यामप्रसाद भण्डारिणा प्रकाशितायां विज्ञप्तौ उल्लिखितं वर्तते। अन्तर्व्यवस्था संघस्य 44th सम्मेलने सहभागितायै राष्ट्रियसभायाः अध्यक्षस्य गणेश प्रसाद तिमिलसिना विदस्य नेतृत्वस्य 9-सदस्यीयं प्रतिनिधिमण्डलं ह्यः इण्डोनेशिया देशाय प्रस्थितं वर्तते। अन्तर्व्यवस्थापिका संघस्य इण्डोनेशिया देशस्य संसदस्य आयोजनायां श्वः चैत्रमासस्य 6th दशमदिवसं यावत् बालिस्थाने आयोक्ष्यमाणे सम्मेलने सहभागितायै प्रतिनिधिमण्डलमिदं प्रस्थितं वर्तते इति समाचाराः।